अभिदष्टे एवदे धजा मनीषा मत्यो न बाजी सुधुरो जिहानः अभिप्रजा डिमरमृषत्पराणि कवीं गृच्छामि सन्दृशे सुमेधाः इनोत पृच्छजनिमा कवीनां मनोधृतः सुकृतस्तक्षतद्याम् इमा उते प्रण्यो वर्धमाना मनो वाता अधनो धर्मणिग्मन् निशेमिदत्र गुह्या दधाना उत क्षत्राजरोदसे समञ्जन् सम्मात्रा भर्ममिरे जेमरुर्वी अन्तर्महे समृते धाजसे धुः आतिष्ठन्तम् परिविश्वे अभोषन् सृजो वसा नश्चरति स्वरोचिः महत्तद्रष्णो असुरस्य नाम विश्वरूपो अमृतानितस्थौ असो तपोर्वो वृषभोज्याया निमा अस्य शुरुधः सन्ति पूर्वीः दिवो न पाता विदधस्य धीभिः क्षत्रम् राजाना प्रदिवो दधाथे त्रीणि राजाना विदधे पुरोणि परिविश्वानि भोषधः सदांसि अपश्यमत्र मनसा जगन्वान् व्रते गन्धर्वाम् अपि वाजुकेशान् तदिन्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यङ्गोः अन्यदन्यदसुर्या अम्बसा नानि मायिनाममिरे रूपमस्मिन् तदिन्वस्य सवितुर्नगर्मे हिरण्यजे मम तीयामशिश्रेत आसुष्टुते रोदसे विश्वमिन्वे अपि भजोषा जनिमानि वव्रे युवम् व्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परिणः स्यातम् गोपाजिह्वस्य तस्थुषो विरोपा विश्वे पश्यन्ति माजिनः कृतानि शुनम् हुवेम भगवानमिन्द्रमस्मिन्भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमोतजे समत्सुघ्नन्दम् वृत्राणि सञ्जितम् धनानाम्